ॐ एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः तमश्चाज्ञानजम् भिन्नम् तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्।
धन्यवादाः भगिनी। धातुविज्ञानं द्वितीयभागः इति करपत्रस्य पठनं समापितम्। अद्य अभ्यासं कुर्मः। अस्मिन् अध्याये किं पठितं तस्मिन् प्रसङ्गे संक्षेपेण पञ्चनिमेषपर्यन्तं सारांशरूपेण वक्तुमिच्छामि। औपदेशिकधातुतः अनुबन्धवर्णानां निष्कासनानन्तरं कानिचन प्राकृतिककार्याणि भवन्ति धातोः रूपम् आश्रित्य। धातोः रूपम् आश्रित्य सत्वं नत्वं नुमागमः उपधादीर्घः एतेषु चतुर्षु कार्येषु अन्यतमं कार्यं भवति, कुत्रचित् कार्यद्वयमपि भवति। शोपदेशधातुषु धात्वादेः शहसः सूत्रेण धातोः आदौ स्थितस्य मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आदिष्टः भवति। शोपदेशधातूनां प्रसङ्गे निमित्तापाये नैमित्तिकस्यापि अपायः इति प्रवादस्य चिन्तनमपि वयं कृतवन्तः। निमित्तापाये नैमित्तिकस्यापि अपायः इति एकः प्रवादः एव, न तु वार्तिकं न तु न्यायः, तस्य समर्थनं न भवति। अतः तत्र शास्त्रीयचिन्तनमपि प्रतिपादितमस्ति। शास्त्रीयचिन्तनं किम् इत्यपि अस्माभिः चर्चितम्। एतत् सर्वं शोपदेशधातुषु भवति। द्वितीयं प्राकृतिकं कार्यमस्ति नत्वम्। अणोपदेशधातुषु अणो नः इति सूत्रेण मूर्धन्यणकारस्य स्थाने दन्त्यनकारः आदिष्टः भवति, किमपि निमित्तम् अनपेक्ष। तृतीयं कार्यमस्ति नुमागमः। इदित् धातुषु इदितोनुं धातोः इति सूत्रेण नुमागमः भवति। नुमागमः मेदचोन्त्यात् परः इति परिभाषासूत्रेण अन्तिम अचुवर्णस्य अनन्तरं सः नकारः आयाति इदित् धातुषु। इदित् धातुषु नुमागमः भवति, किन्तु यः नकारः आगमरूपेण आगतः सः नकारः सर्वेषु धातुषु यथावत् न तिष्ठति। किं भवति? नकारस्य परिवर्तनं भवति, इत्युक्ते तत्र सन्धिकार्यद्वयं भूत्वा सः नकारः परिवर्तितः भवति। सः नकारः नश्चापदान्तस्य झलि इति सूत्रेण झल् प्रत्याहारस्थवर्णः परः अस्ति चेत् सः अपदान्तनकारः अनुस्वाररूपेण परिवर्तितः भवति। नकारः आदौ अनुस्वाररूपेण परिवर्तितः भवति, पश्चात् अनुस्वारस्य ई परसवर्णः इति सूत्रेण तत्तत्वर्गस्य पञ्चमसदस्यादेशः अनुस्वारस्य स्थाने भवति। इमानि कार्याणि निमित्तम् अनपेक्ष भवन्ति। इदित् धातुषु इमानि सर्वाणि कार्याणि भवन्ति। इदित् धातुषु आदौ नुमागमः पश्चात् सन्धिकार्यद्वयं भवति। चतुर्थं प्राकृतिकं कार्यमस्ति उपधादीर्घः। कुत्र भवति? तदर्थं निकषाः सन्ति। धातुः हलन्तः भवेत्, उपधायां रेफः अथवा वकारः भवेत्, रेफवकारयोः पूर्वम् उपधायाम् इक् प्रत्याहारस्थवर्णः अपि भवेत्, तदानीम् एव तत्र स्थितस्य इक् वर्णस्य दीर्घत्वं भवति। उदाहरणार्थं कुर्द् अस्ति चेत् लौकिकधातोः रूपं कूर्द् भवति, गुर्द् अस्ति चेत् गूर्द् भवति, उर्व् अस्ति चेत् ऊर्व्, कुर्द् इत्यस्य कूर्दते इति लट्लकाररूपं भवति। उपधादीर्घत्वं भवितुं त्रयः निकषाः आवश्यकाः, इत्युक्ते तत्र धातुः हलन्तः भवेत्, उपधायां रेफः अथवा वकारः भवेत्, तस्मात् पूर्वम् इक् प्रत्याहारस्थवर्णः भवति चेदेव उपधादीर्घत्वं भवति, निमित्तम् अनपेक्ष। एतत् सर्वम् अस्माभिः पूर्वतनेषु वर्गेषु चर्चितमेव। गते वर्गे प्रश्नद्वयम् आगतम्, वृद्धिरादैच् इति वृद्धिसन्धेः प्रसङ्गे संज्ञासूत्रमस्ति. तत्र आत् इति कथनेन केवलं दीर्घ आकारः एव. वृद्धिरादैच् इति संज्ञासूत्रमस्ति. तस्मिन् सूत्रे तपरकरणं कृतमस्ति. आकारस्य ह्रस्वदीर्घप्लुतप्रभेदाः सन्ति अथवा आकारस्य अष्टादशप्रभेदाः सन्ति चेदपि वृद्धिरादैच् इत्यस्मिन् सूत्रे तपरकरणं कृतमस्ति इति कारणतः तत्र केवलं दीर्घ आकारः एव स्वीकर्तव्यः. दीर्घ आकारे अपि षट् प्रभेदाः सन्ति. तेषां षण्णां प्रभेदानां ग्रहणं भवति आत् इति कथनेन. आदैच् इति उक्तमस्ति खलु, ऐच् तत्रापि तपरकरणम् अस्ति. ऐच् प्रत्याहारे एकारः ओकारः वर्णद्वयमस्ति. एकारस्य ह्रस्वप्रभेदः नास्ति, ओकारस्यापि ह्रस्वरूपं नास्ति. एकार ओकारयोः दीर्घप्लुतरूपाणि सन्ति. एकार ओकारयोः दीर्घरूपम् एव, दीर्घ एकार ओकारयोः रूपमेव तत्र स्वीकर्तव्यम्. आहत्य ऊर्ध्वराधैच् इत्यस्मिन् सूत्रे तपरकरणं कृत्वा लिखितमस्ति. आत् इति कथनेन दीर्घ आकारस्य षण्णां प्रभेदानां ग्रहणम्, एकार दीर्घ ओकारयोः षण्णां प्रभेदानां ग्रहणम् एव भवति. वृद्धिसंज्ञा नाम किम् इति अवगन्तुं तत् सूत्रं पठनीयम्. वृद्धिसंज्ञकवर्णाः के इति अवगन्तुं तत् सूत्रम् आवश्यकम्. आत् ऐच् इत्यत्र सवर्णग्रहणनिषेधार्थं तपरकरणं कृतमस्ति. तपरकरणं किमर्थं क्रियते? सवर्णग्रहणनिषेधार्थं क्रियते. अपि च उपधायां च इत्यस्मिन् सूत्रे उपधायाम् इति सप्तमी एकवचनं. सूत्रे भिन्नर्थः दृश्यते खलु, तदर्थं प्रश्नः आगतः. गते वर्गे गोमती भगिन्या सूचितमेव, उपधायाम् इति सप्तमी एकवचनरूपमस्ति चेदपि वस्तुतः षष्टिद्विवचनस्य अर्थनिर्देशं करोति. षष्टिद्विवचनस्य निर्देशं करोति उपधायाम् इति. षष्टिद्विवचनस्य स्थाने सप्तमी एकवचनरूपं दत्तमस्ति. अयम् आर्षप्रयोगः. अत्र उपधायाम् इत्यस्य अर्थः उपधयोः अथवा उपधाभूतयोः रेफवकारयोः इति अर्थः अस्ति. उपधायां च इति सूत्रम् अवगन्तुम् उदाहरणानि वदामि. कुर्द् कूर्द्, गुर्द् गूर्द्, गुर्व गूर्व, उर्व ऊर्व, खुर्द् खूर्द्. इमानि उदाहरणानि प्रसिद्धानि. अपि च उपधायां वकारः तादृशधातवः न लभ्यन्ते इति मया पठितम्. सारांशरूपेण किञ्चित् उक्तवती. इदानीं वयं सर्वे मिलित्वा अभ्यासं कुर्मः. उपदेशावस्थायां मूलधातवः अस्मिन् करपत्रे करपत्रस्य अधोभागे प्रदर्शिताः. तेषां धातूनां लौकिकरूपाणि वक्तव्यानि. अपि च कैः सूत्रैः किं कार्यं भवति, लौकिकधातोः रूपं कथं साधनीयं, सूत्राणां साहाय्येन सोपानेन वक्तव्यम्. लक्ष्मी भगिनी, भवती आरम्भं करोतु.
अत्र अभ्यासः इति अस्ति, तदेव
उत्तमम्. अत्र प्रथमः धातुः अज्ञ अस्ति.
अकार उत्तरवर्ति अनुनासिक अकार उत्तर अनुनासिक अकारः अस्ति. अनुनासिक इकारः.
अत्र रूपं कीदृशम् अस्ति, वर्णक्रमः कः?
आ अनन्तरं ग अनन्तरं इकारः
कीदृशः?
अनुनासिक इकारः.
उत्तमं. चन्द्रबिन्दुना सहितः इकारः दृश्यते, वदतु.
उपदेशे अनुनासिक इति भवति, अतः तस्य लोपः भवति. अग् इति भवति वा?
अग् भवति. पश्चात् इतोपि कार्याणि सन्ति. अयं धातुः कीदृशः? ईदित् धातुः खलु. अनुनासिक इकारः इत् संज्ञकः. अत्र चन्द्रबिन्दुना सहितः इकारः लिखितः. तदर्थम् अनुनासिक इकारस्य इत् संज्ञा उपदेशे जुनुनासिक इत् इति सूत्रेण भवति. तस्य लोपः इति सूत्रेण तस्य लोपः भवति. अग् इति रूपम् आयाति. धातुः इदित् अस्ति इति कारणतः, वदतु.
इगित् अस्ति इति कारणतः न स्मरामि भगिनि.
चिन्ता मास्तु. गोमती भगिनी, कृपया किञ्चित् साहाय्यं करोतु.
अग्ने इति धातु उपदेशावस्थायाम् अस्ति. मूलधातुः अस्ति, पादिगणीयधातुः अस्ति. परस्मैपदी अर्थः भवति गतौ इति. प्रथमकार्यं भवति इत्संज्ञानां निष्कासनम्। अत्र इकारः अनुनासिक उच्चारण इकारः अस्ति, अतः उपदेशे अजनुनासिक इत् इति सूत्रेण तस्य लोपः इत्यपि सूत्रेण लोप भूत्वा अग् एव शिष्यते। धातु अनुनासिक इकार इत् धातुः अस्ति, अतः अत्र तत्परे सत्त्वं न भवति, अनुनासिक इक् वर्णः अस्ति। सूत्रमस्ति इदितो नुम् धातुः इति सूत्रेण नुट् आगमः भवति।
नुम् भगिनी, नुम् आगमः,
क्षम्यतां, नुम् आगमः,
क्षम्यतां, नुट्टु नुम् द्वयोर्मध्ये भेदः अस्ति खलु?
भेदः अस्ति भगिनी।
उत्तमम्।
नुम् नुम् इति नुम् धातौ आगमः मित् अस्ति, अतः तत्र मिदचो अन्त्यात् परः इति सूत्रमपि कार्यं करोति। अत्र धातु अग् इति, अतः अन्त्य मिदचो अन्त्यात् परः, अन्त्य अकारात् परं नकारः आगच्छति, अ न ग इति रूपं भवति नुमागम अनन्तरम्। अङ्ग् इति भवति, यदा अङ्ग् भवति तदा तत्र अनुस्वारः आदेशः भवति नकारस्य स्थाने। नश्च पदान्तस्य नश्च पदान्तात् झलि इति सूत्रेण अनुस्वारः आगच्छति नकारस्य स्थाने, अङ्ग् इति भवति। अनन्तरं तत्र परसवर्णः भवति अनुस्वारस्य, एयि परसवर्णे इति सूत्रेण अत्र परसवर्णः भवति गकारः, गकारस्य परसवर्णः भवति ञ इति, ङ भवति, तु अनुस्वारस्य स्थाने ङकारः आगच्छति अङ्ग् इति भवति। अङ्ग् इति धातु भवति, प्रक्रियायां तद् रेडि तयार् अस्ति, तयार् वर्ड्
धातुः सिद्धः,
प्रक्रियार्थं प्रक्रियार्थं धातुः सिद्धः अस्ति। अनन्तरम् अस्माकं विवक्षा लट् लकारः अस्ति, प्रथमपुरुष एकवचनम् अस्ति चेत् एतत् धातुः पादिगणीय परस्मैपदी धातुः अस्ति, अतः अङ्ग योगः टिप् इति आगच्छति, टिप् आगच्छति प्रथमम्, लट् आगच्छति प्रथमम्, अनन्तरं लस्य स्थाने तिप् आगच्छति। तिप् सार्वधातुक अस्ति, कर्तृत्वधातु अस्ति, अतः तत्र शप् आगच्छति विकरणप्रत्ययरूपेण, तत् धातुः तिप् मध्ये आगच्छति। अङ्गयोगः शप् योगः तिप् इति अस्ति। अत्र शप् इत्यस्य शकारः इत् अस्ति, सार्वधातुकप्रत्ययः अस्ति, अतः तस्य लशक्व तथिते इति सूत्रेण तस्य लोपः भूत्वा केवलम् अकारः अस्ति। पकारस्य हलन्त्यम् इति सूत्रेण तस्य अपि तस्य लोपः सूत्रेण निष्कासनं भवति, केवलम् अ एव शिष्यते। तो अङ्गयोग अ योग ति अङ्गयोग अ अङ्ग इति एव भवति, तत्र किमपि कार्यं न भवति। अङ्ग अङ्गयोग तिप् तिप् अत्र अकारस्य हलन्द्यं तस्य लोपः सूत्रेण तस्य अपि निष्कासनं भूत्वा केवलं ति अवशिष्यते। अङ्गयोगः ति ति इति सार्वधातुकप्रत्ययः अस्ति, परन्तु अत्र कार्यं किमपि नास्ति, केवलं मेलनम्। अङ्गति इति रूपं लट् प्रथमपुरुष एकवचनम्, अङ्गति अङ्गते अङ्गन्ति इति रूपाणि,
अङ्गति अङ्गतः अङ्गन्ति, साधु उक्तवती। धन्यवादाः भगिनी, तावदेव। लक्ष्मी भगिनी, अवगतं वा? धातुः इदित् अस्ति इति कारणतः अत्र नुमागमः भवति आदौ, भवती वक्तुमिच्छति वा?
पूर्णं न जानामि।
लौकिकधातोः निर्माणं कथं भवति? भगिनी पूर्णा प्रक्रिया उक्तवती, लट्लकाररूपं कथं साधनीयम् इति गोमती भगिनी उक्तवती। अत्र लौकिकधातोः रूपपर्यन्तं वक्तव्यं चेत् धातुः इदित् धातुः इति स्मर्तव्यः अंशः। इदित् धातुः अस्ति चेत् नुमागमः भवति, सन्धिकार्यद्वयमपि भूत्वा कवर्गीयपञ्चमव्यञ्जनं ण्यकारः ण्यकारसहितं रूपं लेखनीयम्। अङ्गम् इति वदामः, अङ्गं कथं लिखामः? कवर्गीयपञ्चमव्यञ्जनं लिखित्वा अत्र धातुः अज्ञौ अस्ति, किन्तु लौकिकधातुः अङ् इत्युक्ते परसवर्णयुक्तं रूपं लेखनीयम्। अग्रिमधातुः तस्मिन् विषये वदतु भवती एव।
अत्रापि अनुनासिक अकारः अस्ति,
घट्ट इति भाति, वदतु।
उपदेशे जनुनासिक इति सूत्रेण इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण लोपः भवति। अट्ट इति अट् 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 इति भवति।
अत्र इत्संज्ञकवर्णः कः?
अनुनासिक अकारः।
अनुनासिक अकारः इत् संज्ञकः, अतः उपदेशे जनुनासिक इत् अपि च तस्य लोपः, द्वाभ्यां सूत्राभ्याम् अनुनासिक अकारस्य लोपः भवति। इतोपि कार्याणि सन्ति वा अत्र?
इतोपि नास्ति।
लौकिकधातोः रूपं किं भवति?
अट्
घट् एव भवति। टकारद्वयं लिखित्वा धातोः रूपं लेखनीयम्। अयं धातुः भुवादिगणे अस्ति इति कारणतः घट्टते इति रूपं भवति। यथा भगिन्या पूर्वम् उक्तमस्ति, भुवादिगणे शप् इति विकरणप्रत्ययः मध्ये आयाति। शप् इति विकरणप्रत्ययस्य अनुबन्धरूपानन्तरम् अवशिष्टभागः आ अस्ति इति कारणतः घट् योगः आयोगः ते। धातुः आत्मनेपदीधातुः अस्ति इति कृत्वा ते इति रूपम् अन्ते आयाति। तत्रापि सूत्रमस्ति, तित आत्मनेपदानां तेरे इति सूत्रमस्ति। लटी रूपं घटते अस्ति, चुरादिगणे अस्ति चेत् घटयेते इति रूपं भवति। आहत्य अस्मिन् धातौ केवलम् अनुबन्धवर्णानां निष्कासनम् एव कार्यम्, एकमेव कार्यं, खलु?
आमाम्।
उत्तमम्। अग्रे वीणा भगिनी भवती वदतु।
तदनन्तरं भ्रेजृ इति धातुः अस्ति। भ्रेजृ अत्र अन्ते जकारस्य अन्ते ऋकार अनुनासिक ऋकारः अस्ति, तस्य हलन्तम् इति सूत्रेण तस्य लोपः भवति।
चिन्तयतु,
उपदेशे अनुनासिक ऋकारः अस्ति खलु,
खलु तस्य इति
उपदेशे जनुनासिक इति सूत्रेण तस्य लोपः भवति। भ्रेज इति अवशिष्यते, भ्रेज इति अवशिष्यते। अत्र भ्रेज इत्र अत्र धात्वादेः शः सः न प्रसक्तिः नास्ति। किमर्थम् इत्युक्ते श नास्ति अत्र धातु उपदेशे मध्ये। तदनन्तरं नत्वम् अपि न भवति। किमर्थम् इत्युक्ते नो नः इति अत्र प्रसक्तिः नास्ति। तदनन्तरं नुमागमः इति धातुः अपि नास्ति। अतः भ्रेज इति अहं चिन्तयामि आत्मनेपदधातुः अस्ति, शप्रत्ययः आगच्छति, भ्रेज इति भवति लौकिकरूपं भ्रेज। तदनन्तरम् आत्मनेपदे प्रत्ययाः ते, भ्रेजते इति अन्तिमरूपं सिद्धं भवति।
साधु उक्तवती भगिनि, इतोपि स्पष्टतया वक्तव्यं। लौकिकधातुः भ्रेज, तत्र जकारः अस्ति, जकारस्य अन्ते अकारः नास्ति। अकारः कुतः आगतः? शप् इत्यस्मात् आगतः। अत्र अनुनासिक ऋकारः इत्संज्ञकः, अनुनासिक ऋकारस्य इत्संज्ञा उपदेशे जनुनासिक इत्यनेन भवति, तस्य लोपः इत्यनेन तस्य लोपः भवति। लौकिकधातुः भ्रेज्, धातुः भुवादिगणे अस्ति, भुवादिगणे अस्ति इति कारणतः मध्ये शप् इति विकरणप्रत्ययः आयाति। शप् इत्यस्य भागः एव आ। अत्र तिप्रत्ययं निमित्तीकृत्य अङ्गं भ्रेज, आत्मनेपदिप्रत्ययः एव अत्र वक्तव्यः। धातुः भुवादिगणीयधातुः, लटीरूपं भ्रेजते। अत्र अनुबन्धवर्णानां निष्कासनम् एकमेव कार्यमस्ति। अग्रिमधातोः रूपं वदतु।
अग्रे अस्ति चञ्चु इति अस्ति। अत्र उ चकारस्य परे उ अनुनासिकस्वरः अस्ति, तत् अपि उपदेशे जनुनासिक इति सूत्रेण तस्य लोपः भवति। अत्र नश्चान्तपदान्तस्य इति सूत्रेण शो सत्वं न भवति नत्वं न भवति. अत्र उपदेशे एव नकारः अस्ति, दन्तनकारः अस्ति. तस्य नश्चान्तपदान्त इति सूत्रे नश्चान्तपदान्तस्य झलि इति सूत्रेण तस्य नकारस्य किं भवति
अनुस्वाररूपेण
अनुस्वाररूपेण चञ्चु इति भवति. तदनन्तरं च इति झल् वर्णः अस्ति, अतः पुनः तत्र चकारस्य पञ्चमवर्णः आगच्छति अनुस्वारस्य ययीपरसवर्णः इति सूत्रेण. चञ्चु चकारस्य पञ्चमवर्णः चञ्च इति भवति. चञ्च इति परस्मैपदी धातुः अस्ति अहं चिन्तयामि. अतः शप् प्रत्ययः अ इति भवति, शप् प्रत्ययस्य अकारः अ, अतः चञ्च इति भवति. आत्मनेपदी प्रत्ययः अस्ति इति चञ्चति इति अन्तिमरूपं भवति.
साधु भगिनि, साधु उक्तवती अस्मिन् धातौ अनुनासिक उकारः इति संज्ञकः. यथा भगिन्या उक्तं, धातोः मूलस्थित्याम् एव दन्तनकारः अस्ति. अत्र धातुः इदित् नास्ति, नुमागमरूपेण नकारः न आगतः. अस्मिन् धातौ पूर्वमेव दन्तनकारः अस्ति. आदौ इत् संज्ञकवर्णानां निष्कासनानन्तरम् अत्र रूपं चञ्च् भवति. अनुनासिक उकारः लुप्तः जातः, तदर्थं चञ्च् इति रूपम् अस्ति. इत्युक्ते दन्त्यनकारसहितं रूपम् आदौ आयाति, पश्चात् नश्चापदान्तस्य झलि. अत्र झल् वर्णः कः वदतु?
झल् वर्णः च अस्ति भगिनि.
अत्र चकारः झल् वर्णः अस्ति. दन्त्यनकारात् परं यः चकारः अस्ति सः चकारः झल् प्रत्याहारस्थवर्णः. अतः नश्चापदान्तस्य झलि इति सूत्रेण आदौ तत्र स्थितस्य दन्त्यनकारस्य स्थाने अनुस्वारादेशः, पश्चात् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशः इत्युक्ते चवर्गीय पञ्चमसदस्यादेशः भवति. अत्र यै प्रत्याहारस्थवर्णः कः? अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य निमित्तम् अत्र यै वर्णः कः वदतु?
ययि यवर्णः इत्युक्ते इति भवति खलु.
चवर्गीयपञ्चमसदस्यादेशः भवति इति तु सत्यमेव, किन्तु अनुस्वारस्य ययि परसवर्णः इति सन्धिकार्यं भवितुम् अत्र यै प्रत्याहारस्थवर्णः कः?
यै प्रत्याहारे ऊष्माणः ह तथा ऊष्माणः विहाय सर्वे व्यञ्जनानि आगच्छन्ति. अतः
धातोः रूपम् एकवारं परिशीलयतु. आदौ दन्त्यनकारयुक्तं रूपं, पश्चात् अनुस्वारसहितं रूपम् आयाति, तदानीम् अनुस्वारस्य स्थाने पञ्चमसदस्यादेशस्य आदेशार्थं तत्र यै वर्णः कः? चकारः खलु. चकारः यै प्रत्याहारस्थवर्णः, अतः निमित्तं पूरितं, तदर्थं तत्र स्थितस्य अनुस्वारस्य स्थाने पञ्चमसदस्यादेशः भवति. किन्तु अत्र भेदः न दृश्यते, आदौ एव दन्त्यनकारयुक्तं रूपमेव तत्र आगतं, सन्धिकारे द्वयानन्तरम् अपि दन्त्यनकारयुक्तं रूपमेव आगतं, तदर्थं भेदम् अवगन्तुं न शक्नुमः खलु.
भ्रमः भवति.
तत्र रूपं समानमस्ति चेदपि सन्धिकार्यद्वयं करणीयम्, किमर्थं चेत् तत्र निमित्तानि पूरितानि सन्ति. साधु भगिनी, साधु उक्तवती. इदानीं निर्मला भगिनी भवती वदतु.
भगिनी अद्य अहं केवलं शृणोमि भगिनि.
हा चिन्ता मास्तु. प्रतिमा भगिनी भवती वदतु. धातुः टिक्रु इति अस्ति.
टिक्रु उपदेशे अनुनासिकसूत्रेण अनुनासिकरुकारस्य इत्संज्ञा भवति, पश्चात् टिक् इति अवशिष्यते. तदनन्तरं धातु प्रक्रियार्थं सिद्ध अस्ति.
उत्तमं, तावदेव. इत्युक्ते अत्र अनुबन्धवर्णानां निष्कासनम् एकमेव कार्यम् अस्ति. अनुबन्धलोपे सति टिक् एव लौकिकधातुः. धातुः भुवादिगणे अस्ति, रूपं साधयतु.
टिक् योग शप योग ति
अत्र धातुः आत्मनेपदी धातुः
सो टिक योग शप योग ते सो इत सद्या शस्य लोप भवति लश्वक् शक्ते सूत्रेण एण्ड् पस्य लोप भवति हलन्त्यस्य लोप सूत्रेण केवलम् अ अवशिष्यते अतः टिक योग अ योगते टिकते
न चिन्तयतु भगिनि टिक् इति धातुः अस्ति अयं धातुः ईदुपधधातुः इत्युक्ते उपधायां ह्रस्व इकारः अस्ति टिक् इति कथनेन अन्तिमवर्णः ककारः ककारात् पूर्वं ह्रस्व इकारः अस्ति शप् षित् अस्ति पित् अपि अस्ति तदानीं किं भवति टिक् इति ईदुपधधातुः इकारः उपधायाम् अस्ति तदर्थं तत्र पुगन्तलघुपधस्य च इति सूत्रेण इकारस्य गुणः भूत्वा टेक् भवति टिक् गुणः भूत्वा टेक् भवति शप् इत्यस्मात् अकारः आगतः टेक् योगः आयोगः ते टेकते इति आत्मनेपदिरूपम् अत्र धातुः इदुपधधातुः इदुपधधातुः इगुपधधातुः द्वयोर्मध्ये भेदः अस्ति इगुपधधातुः इति कथनेन इक् प्रत्याहारस्थवर्णः अस्ति इदुपधधातुः इत्युक्ते उपधायां ह्रस्व इकारः अस्ति इति लौकिकधातुः टिक् अस्ति अत्र प्राकृतिकानि कार्याणि न सन्ति केवलम् अनुबन्धवर्णानां लोपकार्यम् एकमेव कार्यम् अत्र खलु अग्रिमधातोः रूपं वदतु
उपदेशे अजनुनासिकसूत्रेण अनुनासिक अकारस्य इत्संज्ञा भवति शल एव अवशिष्यते लशवक्तशक्ते
धातोः रूपं तु शल् तालविषकारयुक्तः धातुः अयं धातुः अत्र बहु किमपि कार्यं नास्ति केवलम् अनुबन्धवर्णानां निष्कासनम् एकमेव कार्यम् अस्ति अनुनासिक अकारः उपदेशे जनुनासिक इत् इति सूत्रेण इत् संज्ञकः भवति तस्य लोपः इत्यनेन तस्य लोपः अपि भवति तेन लौकिकधातुः शल् धातुः भुवादिगणीयः आत्मनेपदी धातुः अस्ति इति कृत्वा शलते शलति इति अपि अस्ति धातुद्वयम् अस्ति इति भाति साधु भगिनि अग्रिमधातुः इण् गतौ नरसिंह हेग्डे महोदय भवान् वदतु
इण् गतौ अत्र नकारस्य अल्लन्त्यम् इत्यनेन इत्संज्ञा भवति तस्य लोपः इत्यनेन लोपः भवति इ इति अवशिष्यते इण् इति अदादिगणीयदातु अस्ति न महोदय
आम्
आम् अत्र विकरणप्रत्ययः नास्ति अत्र लोपः भवति अतः इ योग ति तिप् तिप् मध्ये पकारस्य अलन्त्यम् इत्यनेन संज्ञा तस्य लोप इत्यनेन लोप ति इति अवशिष्यते तिप् इति तिङ् प्रत्ययः अस्ति अतः सार्वधातुकप्रत्ययः अस्ति सार्वधातुक अर्धधातुक इत्यनेन इकारस्य गुणः भूत्वा ए भवति ए योग ति एति रूपम्
उत्तमं महोदय अदादिगणीयधातुः शपः लुक् भवति खलु ई इति लौकिकधातुः तत्पश्चात् तिप् अस्ति तिप् प्रत्ययः पित् प्रत्ययः अस्ति तिप् इत्यस्मिन् पकारः इति संज्ञकः पित्वम् अस्ति प्रत्यये प्रत्ययः सार्वधातुकः अपि च पित् प्रत्ययः अस्ति इति कारणतः गुणकार्यम् इ इति धातुः इगन्तधातुः इगन्तधातुः अस्ति इति कारणतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा इ इत्यस्य गुणसंज्ञकवर्णः एकारः अतः ए भवति ए योगः ति एति इति प्रथमपुरुष एकवचनरूपं साधु अग्रे करोतु महोदय
भुजि इति धातु अत्र अनुनासिक इकारस्य संज्ञा भवति उपदेशे अनुनासिक इत्यनेन तस्य लोप इत्यनेन लोपः भवति गुज् इति अवशिष्यते अत्र अनुनासिक इकारस्य संज्ञा अस्ति इति चेत् इदितो नुम् धातु इत्यनेन नकारस्य आगमः भवति कुत्र भवति इत्युक्ते मिदचोञ्चात् पुरा इत्यनेन गु अनन्तरं भवति अन्तिमचर्णौ अस्ति अतः गुञ्ज् इति भवति अनन्तरं नश्च पदान्तस्य जलेतरेण अनुस्वारः भवति नकारस्य गुञ्ज् इति अनुस्वारस्य ऐ पव परसवर्ण इत्यनेन जकारस्य अन्तिमवर्णं च च ज्ञा भूत्वा गुञ्जिति भवति गुञ्जिति भवति अनन्तरं बादिगणीय शप् शप् अकारः अवशिष्यते अत्र शप् अकारः तु सार्वधातुकः अस्ति परन्तु अत्र अन्ते अति वर्णः नास्ति उपादायमपि नास्ति अतः गुणस्य प्रसक्तिः नास्ति गुञ्ज योग ति गुञ्जति इति
उत्तमं लटीरूपं गुञ्जति भुवादिगणीयधातुः अयं धातुः लट् रूपं गुञ्जति अत्र तिप्रत्ययस्य कृते गुञ्ज इति अङ्गं भवति आ इति शप् इत्यस्मात् आगतः साधु महोदय इदित् धातुः अस्ति इति कारणतः इदितोनुं धातोः सूत्रेण नुमागमः भूत्वा पश्चात् सन्धिकार्यद्वयं भूत्वा चवर्गीय पञ्चमसदस्यः अनुनासिकवर्णः तत्र आदिष्टः भवति अनुस्वारस्य ई परसवर्णः इति सूत्रेण तादृशरीत्या एव इदं रूपं सर्वदा लेखनीयं धातुः तु गुज् किन्तु लौकिकधातुः गुञ्ज् चवर्गीय अनुनासिकवर्णयुक्तं रूपं लेखनीयम् साधु महोदय धन्यवादाः
धन्यवादः
अग्रे सत्यभामा भगिनी भवती वदतु
सीन् इति धातुः अत्र नकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति तदनन्तरं तस्य लोपः इत्यनेन लोपः भवति शी इति रूपं लौकिकधातु भवति शी शेते इति शी इति इगन्तधातुः अस्ति सर्वधातु अर्थधातुः इत्यनेन गुणः भूत्वा शेते इति रूपम्
अत्र विशिष्टं कार्यमस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः न भवति शीङ्गः सार्वधातुके गुणः इति विशिष्टसूत्रेण गुणः भूत्वा शेते इति रूपं सिध्यति शीङ् स्वप्ने इत्यस्मिन् अर्थः अयं धातुः अस्ति यथा भवत्या उक्तं लौकिकधातुः तु शी एव अस्ति तस्य रूपं शेते तत्र विशिष्टं सूत्रमस्ति शीङ्गः सार्वधातुके गुणः इति सूत्रेण गुणकार्यं भवति अग्रे करोतु
द्रै अत्र किमपि न भवति वा
उत्तमं वर्णानां क्रमः कः
प्रथमं दकारः तदनन्तरं रेफः ऐकारः
उत्तमम् इत्युक्ते एजन्तधातुः अथवा ऐकारान्तधातुः अनुनासिक अचुवर्णाः सन्ति वा अत्र
नास्ति
न सन्ति नत्वं भवितुं सत्वं भवितुं नुमागमकार्यं भवितुम् अत्र निमित्तानि सन्ति वा
निमित्तानि नास्ति
उत्तमम् अत्र किमपि कार्यं नास्ति मूलधातुः यदस्ति तदेव लौकिकधातोः रूपम् अपि खलु लटीरूपं साधयितुं शक्नोति वा
जानाति किन्तु अस्मिन् स्थले शप् कस्मिन् गणे अस्ति इति न जानामि
भुवादिगणे अस्ति गै धातोः रूपं जानाति वा गै धातुः ध्यै धातुः ध्यै धातोः रूपं ध्यायति गै धातोः रूपं गायति
आदेशः भवति तदात्र इदानीं द्रै इति अस्ति अतः द्रा इति भवति द्रायति इति रूपं भवति वा
कथं भवति
अत्र प्रथमम् आत्वं भूत्वा द्रा इति आगच्छति तदनन्तरं द्रायोगः शप् भवति वा
नरसिंह हेग्डे महोदय कृपया वदतु गै धातोः रूपं गायति ध्यै रूपं ध्यायति अत्र धातुः द्रै अस्ति अत्र रूपं किं भवति केन सूत्रेण भवति
द्रै द्रैयोग अत्र एचो यवायव इत्यनेन ऐकारस्य आय् आ इति भवति अतः द्रै द्रा इति भवति द्राय योगति द्रायति
अस्ति भुवादिगणे अस्ति इति कारणतः शप्रत्ययं निमित्तीकृत्य अङ्गं धातुः तिप्रत्ययं निमित्तीकृत्य अङ्गं द्राय द्राय इति अङ्गं तिप्रत्ययं निमित्तीकृत्य भवति द्राय इति वक्तुं तत्र अकारः अस्ति सः अकारः शप् इत्यस्मात् आगतः. द्राय् इति रूपं कथम् आगतम् इति चिन्तनं कुर्मः चेत् तत्र द्रै योगः आ इति रूपम् अस्ति. तदानीं एचोयवायावः इति सन्धिसूत्रेण यान्तवान्तादेशसन्धिः भूत्वा केवलम् ऐकारस्य स्थाने एव आय् आदेशः भवति. तत्र केवलं सन्धिकार्यमेव भवति. द्रै इत्यत्र ऐकारस्य स्थाने आय् आदिष्टः भवति इति कारणतः द्राय् इति रूपं सिद्ध्यति. द्राय् योगः आ योगः ति द्रायाति. एतादृशं कार्यमेव गायति इत्यत्रापि भवति. गायति, ध्यायति, द्रायति. इत्युक्ते एते धातवः एजन्तधातवः. स्पष्टतया वक्तुमिच्छामश्चेत् ऐकारान्तधातवः. धातोः अन्ते ऐकारः अस्ति, इक्वर्णः नास्ति. तदर्थं गुणकार्यस्य प्रसक्तिः एव नास्ति. धातुः ऐकारान्तः. अतः अत्र केवलं सन्धिकार्यं भूत्वा आय् आदेशः भवति. तदर्थम् अन्तिमं रूपं द्रायति. साधु, अग्रिमधातोः रूपं वदतु भवती एव.
नमांस्ति अत्र अनुनासिकस्य इदानीम् उपदेशाच्छनुनासिक इत् इत्यनेन लोपः भवति. तस्य लोपः इत्यनेन लोपः भवति. नकार आदौ नकारः अस्ति इत्यनेन अधः नत्वं नत्वं भवति. सो नकारः आदि अस्ति चेत् तस्य स्थाने दन्त्यनकारः आगच्छति. नमाम् इति नम् इति रूपं भवति.
अयं धातुः अणोपदेशधातुः खलु. अणोपदेशधातुः अस्ति इति कारणतः अणोनः इति सूत्रेण तत्र स्थितस्य मूर्धन्यणकारस्य स्थाने दन्त्यनकारः आगतः. तेन नम् नम् इति लौकिकधातुः. लट् रूपं वदतु.
शब्द विकरणप्रत्ययः अतः नम् योगः आ. तदनन्तरं ति इति तिप् लट् लकाररूपम् अस्ति. तिप् अस्ति ति इति प्रत्ययः. सो नम् नम् योगः आ योगः ति नमति.
उत्तमम्. अनुबन्धवर्णानां लोपकार्यं प्रथमं कार्यं, पश्चात् णोनः इत्यस्य कार्यमस्ति. लौकिकधातुः नम् अस्ति, दन्त्यनकाररूपं नम् इत्यत्र. लटि नमति. साधु भगिनी, धातुः
भुवादिगणः. इतोपि एकः सन्देहः, द्रै इत्यत्र आत्वं केन सूत्रेण भवति? प्रथम एकम् अकारः आगच्छति खलु. अत्र अयादेशः
आय् आदेशः, न तु अयादेशः. यचोयवायावः इति सन्धिसूत्रेण आय् इत्युक्ते दीर्घ आकारः, यकारः. एकवारं लिखतु.
द्रै योगः आ इति शब् विकरणप्रत्ययः एव खलु.
उत्तमम्.
इदानीम् अवगतवती. सो इदानीम् ऐ योगः आ इति अस्ति. तस्मिन् सन्दर्भे ऐकारस्य स्थाने आय् आदेशः भवति, अकारः तथा तिष्ठति. तदन इदानीं द्राय् योगः आयोगः ति द्रायति.
तदेव
इदानीं स्पष्टम्.
आय् आदेशः, पश्चात् शप् इत्यस्मात् अकारः आगतः. तेन द्राय इति अङ्गं ति प्रत्ययस्य कृते. रोहिणी भगिनी, भवती वदतु अग्रिमधातोः प्रसङ्गे.
चुर अन्तिमवर्णः अनुनासिक अकारः, उपदेशः च अनुनासिक इति सूत्रेण तस्य लोपः भवति. च्युद् अवशिष्टते. तत्र तुदादिगणे भवति. तत्र तुदादिगणे अकारः इति आ इति विकरणप्रत्ययं. च्युदियोग आयोग ति भवति. च्युदति इति लट्रूपम्. अन्ये सूत्राणि न प्रवर्तते. नत्वं नकार नास्ति, नकार अस्ति, नुमागम नास्ति, विदित् नास्ति. तत्र चुरदि एव भवति.
उत्तमम्. अनुनासिक अकारस्य इति संज्ञा उपदेशजनुनासिकी इत्यनेन भवति. तस्य लोपः सूत्रेण लोपः भवति. छेदने इत्यस्मिन् अर्थे अयं धातुः अस्ति. धातुः तौदादिकः. अतः तुदादिभ्यः शः इति सूत्रेण श इति विकरणप्रत्ययः आयाति. श विकरणप्रत्यये षित्वम् अस्ति, पित्वं नास्ति. पित्वं नास्ति इति कारणतः अत्र गुणकार्यम् असम्भवम्. अत्र गुणकार्यं न भवति. इतोपि किं वक्तुं शक्यते अत्र शाविकरणप्रत्ययः अपित् प्रत्ययः अतः सार्वधातुकम् अपित् इत्यनेन नित्वं तस्मिन् अध्यारोप्यते कृति च इति सूत्रेण गुणनिषेधः भवति धातुं पश्यन्तु लौकिकधातुः छुर् अस्ति उदुपधधातुः पुगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भवति स्म भुवादिगणे अस्ति चेत् पुगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भूत्वा छोरति इति भवति स्म किन्तु धातुः तुदादिगणे अस्ति इति कारणतः शाविकरणप्रत्ययः अस्ति शाविकरणप्रत्ययस्य अपित्वात् ख्निति च इति सूत्रेण गुणनिषेधः भूत्वा तस्य रूपं छुरति छुर् लौकिकधातुः आ इति शाविकरणप्रत्ययस्य अवशिष्टभागः छुर् योगः आयोगः ति छुरति इति रूपमेव भवति तुदादिगणीयधातुः अस्ति इति कारणम् अग्रे करोतु
अग्रे तत्रापि अनुनासीय अकारः अन्तिमवर्णः उपदेशे च अनुनासीय इति तस्य लोपः नुद् भवति नो न इति सूत्रेण धात्वादेः नास्य नक्तुं भवति नुद् भवति नुद् तदपि तुदादिगणे तद्विगणप्रत्ययस्य शकारस्य शकारस्य इत्थं भवति अकार अवशिष्यते नुद् योग आयोग तिप् योग नुदति इति लट्रूपं भवति
उत्तमम् अयं धातुः अपि तौदादिकधातुः अतः गुणकार्यं न भवति धातौ आनुकूल्यम् अस्ति वक्तुमिच्छति वा
पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति परन्तु इति च सूत्रेण तत् निषिध्यते नुदति एव भवति
उत्तमम् उदुपधधातुः किन्तु तौदादिकधातुः अस्ति इति कारणतः गुणकार्यम् अभूत्वा भगिन्या उक्तम् उत्तमरीत्या पुगन्तलघुपधस्य च इत्यस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति अत्र नुद् धातुः उदुपधधातुः तौदादिकधातुः अस्ति इति कारणतः नुदति नुदते इति रूपद्वयम् अस्ति उभयपदी धातुः अस्ति इति कारणतः धातुः णोपदेशे धातुः अतः णोनः इत्यस्य कार्यम् अस्ति अग्रे अपि भवती एव करोतु
शुभम् अत्रापि अनुनासीय अकारवर्णः अन्तिमवर्णः उपदेशे अजनुनासीय इत्थं तस्य लोप इति सूत्रद्वयं तस्य लोप भवति शुभ अवशिष्यते तदपि तुदादिगणीय वर्णः श इति विकरणप्रत्ययम् अनुबन्धलोपानन्तरम् आ इति अवशिष्यते तत्रापि पुगन्धरघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति अपि चेत् ङिति च इति सूत्रेण तत् न प्रवर्तते शुभति एव भवति लट्युभम्
धातुः भुवादिगणे अस्ति चेत् किं भवति
शोभति इति भवेत्
तत्र कार्यं किम् अस्ति
उकारस्य गुणभूत शो भवेत् शोभ योग आ योग तिप् शोभति इति रूपं भवेत्
उत्तमं भगिनी तदेव अनुबन्धवर्णानां निष्कासनम् एकमेव कार्यम् अस्ति अत्र शुभम् अनुनासिक आकारस्य लोपः उपदेशजनुनासिक इत् इत्यनेन इत् संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भूत्वा शुभ् इति लौकिकधातुः शुभति लटीरूपं भुवादिगणे शोभति इति रूपम् अस्ति साधु भगिनी तदेव रामचन्द्रन् महोदय भवान् वक्तुमिच्छति वा
भगिनी एकः सन्देहः अस्ति शुभ इति धातुः आत्मनेपदी अस्ति खलु शोभते शोभेते शोभन्ते परस्मैपदी नास्ति शु भ्वादिगणे अस्ति इति अहं चिन्तयामि
द्वादिगणे परस्मैपदी अपि आत्मनेपदी अपि अस्ति
अपि अस्ति वा तत् अहं न जानामि शोभते इति अहं जानामि
भ्वादिगणे शोभते शोभेते शोभन्ते आत्मनेपदी धातुः इति भाति
परस्मैपदी अपि भवति भगिनि पूर्वमेकम् अभ्यासमे दृष्टा
भुवादिगणे परस्मैपदी अपि अस्ति वा
आं भगिनि
अस्तु
अहं न जानामि सर्वत्र अहं प्रायः शोभते इति एव दृष्टवती
भगिनि वदतु
शुभ दीप्तौ इत्यर्थे भुवादिगणे आत्मनेपदी अस्ति शोभते अनन्तरं शुभ भाषणे इत्यर्थे भुवादिगणे अस्ति तद् परस्मैपदी शोभति अनन्तरं शुभ तुदादिगणे अपि अस्ति तत् परस्मैपदी शुभति त्रयः शुभः शुभ अस्ति
भिन्नार्थे
भिन्नार्थे दीप्तौ भाषणे शोभायाम् इति दीप्तौ अर्थे आत्मनेपदे यदा भगिनी उक्तवती शोभते परन्तु भाषणे इत्यर्थे भाषणे हिंसायाम् इत्यर्थे परस्मैपदी शोभति परस्मैपदी तत्र अनन्तरं पुतादिगणे अपि शोभति
अस्तु धन्यवादः भगिनि भुवादिगणे धातुद्वयमस्ति परस्मैपदिरूपम् आत्मनेपदिरूपं किन्तु भिन्न अर्थे धातुद्वयं दत्तमस्ति तौदादिकधातुः अपि अस्ति तस्य रूपं शुभति परस्मैपदिरूपं साधु अग्रे रामचन्द्रन् महोदय भवान् वक्तुमिच्छति वा
प्रयत्नं करोमि भगिनि
अत्र धातुः शुरा अस्ति
धातुः शुरा अस्ति उपदेशे अजनुनासिके इत्यादि कारणे सूत्रेण तत्र अकारस्य लोपः भवति शुर् इति अस्ति अत्र रेफः तत्र रोर् उपधायाः दीर्घः इकः इति सूत्रेण उपधायाः दीर्घत्वं भवति
महोदय पश्यतु शुरौ अनुबन्धवर्णानां निष्कासनानन्तरं शुर् भवति उपधादीर्घत्वं भवितुम् अत्र निमित्तानि पूरितानि सन्ति वा
निमित्तानि तु हल् अस्ति किल हलन्तं हल् हल् वर्णः अन्ते अस्ति रेफः अस्ति
रेफः उपधायां भवेत्
ओ ओ ओ अतः शोपदेव
शुर् अस्ति इदानीं धातुः शोपदेशधातुः अस्ति इति कारणतः इतोपि अन्यत् कार्यमस्ति मूर्धन्यषकारादिधातुः खलु अत्र धातुः मूर्धन्यषकारादि धातुः शुरौ अस्ति अन्ते अनुनासिक अकारः अस्ति अन्ते स्थितस्य अनुनासिक अकारस्य इत् संज्ञा उपदेशजनुनासिक इत् इत्यनेन भवति तस्य लोपः इत्यनेन अनुनासिक अकारस्य लोपः भवति धातुः शोपदेशे धातुः आदौ मूर्धन्यषकारः अस्ति इति कारणतः धात्वादेहे सहसः इति सूत्रेण आदौ स्थितस्य मूर्धन्यषकारस्य स्थाने दन्त्यसकारादेशः भवति तेन सुर् इति धातोः रूपं भवति सुर् इति कथनेन रेफात् पूर्वं ह्रस्व उकारः अस्ति इत्युक्ते अयं धातुः उदुपधधातुः उदुपधधातुः अस्ति चेदपि धातुः तुदादिगणे अस्ति तुदादिगणे अस्ति इति कारणतः तुदादिभ्यः शः इति सूत्रेण शा इति विकरणप्रत्ययः मध्ये आयाति शा विकरणप्रत्यये पित्वं नास्ति पित्वं नास्ति अतः पुगन्तलघुपथस्य च इत्यस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति अतः सुर् योगः आयोगः ति सुरति इति रूपम् अत्र सार्वधातुकम् अपित् अपि च क्निति च द्वाभ्यां सूत्राभ्यां गुणनिषेधः भवति धातौ आनुकूल्यमस्ति उदुपदधातुः अस्ति इति कारणतः किन्तु तुदादिगणीयधातुः अस्ति अतः गुणकार्यम् अभूत्वा सुर्योगः आयोगः ति सुरति इति लटीरूपम् इदानीं गोमती भगिनी अग्रे वदतु
कठ्यम् अत्र कठ्यम् यत्र इकारः अनुनासिक अस्ति अतः तस्य लोपः भवति उपदेशजनुनासिक इत् इति सूत्रेण इत् संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भूत्वा कठ् इति एव भवति फादिगणीयधातुः अस्ति आत्मनेपदी अस्ति शोके इत्यर्थः अस्ति कठ् इति अस्ति हा तत्र नुमागमः आगच्छति इदितो नुम् धातोः इति सूत्रेण किमर्थं चेत् तत्र इकारः अनुनासिक इकारः अस्ति अतः क ढ क न ढ इति भवति तत्र नुमागमः अस्ति अतः मिदचो अन्त्यात् परः इति सूत्रेण क नकारः ठकार ठ इति भवति अनन्तरं तस्य नश्च पदान्तस्य झलि इति सूत्रेण कण्ठ कण्ठ इति भवति अनन्तरं अनुस्वारस्य ऐ परसवर्णे इति सूत्रेण अनुस्वारस्य परसवर्ण आदेशः भवति, ठकारस्य परसवर्ण आदेशः भवति, कण्ठ इति भवति, स्वादिगणीयधातुः अस्ति, आत्मनेपदी अस्ति, कण्ठ योग शप् योग ते कण्ठते इति रूपम्।
उत्तमं भगिनि, तदेव अत्र धातुः इदित् धातुः, अत्र ठकारोत्तरवर्ती अनुनासिक इकारस्य लोपः भवति, तेन कठ् इति रूपम्। धातुः इदित् अतः इदितोनं धातोः मेदचोन्त्यात् परः द्वाभ्यां सूत्राभ्यां नुमागमः भवति, तेन दन्त्यनकारयुक्तं रूपम् आदौ आयाति कण्ठ, तत्र दन्त्यनकारः अस्ति। पश्चात् नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारसहितं रूपम् आयाति, तत्पश्चात् अनुस्वारस्य स्थाने अनुस्वारस्य ययि परसवर्णः सूत्रेण परसवर्णादेशं कृत्वा लेखनीयम्। अन्तिमं रूपं किं भवति? मूर्धन्यणकारयुक्तं रूपं भवति। किमर्थं चेत् टवर्गीय अन्तिमव्यञ्जनं टवर्गीयपञ्चमसदस्यः अणकारः टठडढण, सः मूर्धन्यणकारः अनुस्वारस्य स्थाने आयाति, अतः कण्ठ इति रूपं सिद्ध्यति। मूर्धन्यणकारयुक्तं रूपं लेखनीयं। लौकिकधातुः कण्ठ, यथा भगिन्या उक्तं लटिरूपं कण्ठते। साधु भगिनी, दर्शना भगिनी, भवती वक्तुमिच्छति वा? विद्लु लाभे इत्यस्मिन् अर्थे अस्ति, वदतु।
नैव भगिनी, अहं शृणोमि अद्य।
चिन्ता मास्तु। लक्ष्मी भगिनी, भवती वदतु।
अहं प्रयत्नं करोमि। अनुनासिक ऋकारः अस्ति उपदेशे जनुनासिक इति सूत्रेण तस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण लोपः भवति। विद्ल इति भवति। अनन्तरं
धातौ इत्संज्ञकवर्णः कः?
अनुनासिक ऋकारः
लुकारः, अनुनासिक लुकारः खलु?
हा लुकारः, विद् इति भवति।
अनुनासिक लुकारस्य इत्संज्ञा उपदेशे जनुनासिक इत् सूत्रेण भवति, तस्य लोपः इत्यनेन लुकारस्य लोपः भवति। अनुबन्धवर्णानां लोपकार्यानन्तरं धातोः रूपं किम्?
विद्।
तावदेव, लौकिकधातुः तु विद् एव, किन्तु लटिरूपं पश्यामश्चेत् विन्दति, तत्र अन्यानि कार्याणि सन्ति। केन सूत्रेण? इदितोनं धातोः सूत्रेण इदित् धातुषु नुमागमः भवति, किन्तु अत्र गोमति भगिनी वदतु, धातुः तुदादिगणीयधातुः, अत्र विशिष्टं कार्यं भवति, वदतु।
विदुल धातु मुचादिगणे अस्ति, मुचादि इति तुदादिगणीय अन्तर्गणः अस्ति, विद् तत्र अस्ति, अतः शे मुचादीनाम् इति सूत्रेण तत्र नुमागमः भवति। विद् इकारस्य अनन्तरं नुमागमः भवति, वि योग न योग द, वि न द, अनन्तरं तत्र नश्चपदान्तस्य झलि, अनुस्वारस्य ऐ परसवर्णः, परिसवर्णः इति अनुस्वारः भवति, अनन्तरं परसवर्णः अपि भवति, विन्दति एव रूपम्। प्रथम नुमागमस्य कारणेन विन्दति आसीत्, अनन्तरं सन्धिकार्यं भवति, अतः अनुस्वारः भवति, अनन्तरं परसवर्णः भवति, रूपं विन्दति एव भवति।
उत्तमं, तत्र परिशीलनीयः अंशः क्षेमुचादीनाम् इति विशिष्टसूत्रेण नुमागमः भवति, नकारः आयाति, दन्तिनकारयुक्तं रूपम् आदौ आयाति, पश्चात् अनुस्वारयुक्तं रूपं नश्चापदान्तस्य झलि इत्यनेन अनुस्वारस्य ययि परसवर्णः इत्यनेन परसवर्णादेशं कृत्वा पुनः विन्दतिरूपमेव आयाति, तत्र भेदः नास्ति, किन्तु इमानि कार्याणि करणीयानि एव। अत्र शेमुचादीनाम् इति सूत्रेण नुमागमः भवति, तत् सूत्रं विशिष्टं सूत्रं। तुदादिगणे एकः अन्तर्गणः अस्ति मुचादिगणः, तस्मिन् गणे अष्टधातवः सन्ति, एतेषु अष्टसु धातुषु विद् धातुः अन्यतमः, अतः शेमुचादीनां सूत्रेण नुमागमः भूत्वा विन्दति रूपं। लौकिकधातुः तु विद् एव, मूलरूपं विद्लु, विद् इति लौकिकधातुः बहुषु गणेषु अस्ति. विद् धातोः रूपमेव विद्यते, विद् धातोः रूपमेव वेत्ति, किन्तु भिन्न अर्थेषु एते धातवः सन्ति. अयं धातुः तुदादिगणीयधातुः, विद्लु लाभे तस्मिन् अर्थे अयं धातुः अस्ति, लभते प्राप्नोति एतादृश अर्थेषु धातुः अस्ति, विन्दति लट् रूपम् अस्ति. साधु भगिनी अग्रे करोतु. लक्ष्मी भगिनी,
शिला इति अस्ति अत्र अनुनासिक अक लकारः अस्ति वा?
अनुनासिक अकारः चन्द्रबिन्दुसहित अकारः अस्ति खलु?
उपदेशे अनुनासिक इति सूत्रेण इत्संज्ञा भवति, अनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति. शिल् इति शिल् इति भवति वा?
इतोपि कार्यमस्ति,
सकारस्य स्थाने सकारः भवति.
केन सूत्रेण?
न जानामि.
अत्र धातुः शोपदेशे धातुः, धातोः आदौ उपदेशावस्थायां मूर्धन्यशकारः अस्ति, तदा सत्वं भवति खलु? धात्वादेः सहसः इति सूत्रेण सत्त्वकार्यं भवति. इदानीं वदतु लौकिकधातुः.
सिल् इति भवति, अनन्तरं कस्मिन् गणे भवति?
तुदादिगणे.
तुदादिगणे श इति विकरणप्रत्ययः, अपित् अस्ति अतः गुणः न भवति. शिल् योग आयोग ति एवं वा?
वर्णमेलनं करोतु.
शिलति
शिलति शिलति इति रूपं भवति. साधु उक्तवती तदेव. अत्र धातुः शकारादिधातुः उपदेशावस्थायाम्, अतः धात्वादेः शः सः सूत्रेण सत्त्वकार्यं भूत्वा सिल् सिल् इति लौकिकधातुः, सिल् योगः शा योगः ति इति रूपम् अस्ति. धातुः इदुपधधातुः, लकारात् पूर्वम् उपधायां ह्रस्व इकारः, अतः धातुः इदुपधधातुः. धातौ आनुकूल्यमस्ति, किन्तु धातुः तुदादिगणे अस्ति इति कारणतः सार्वधातुकम् अपित् क्निति च द्वाभ्यां सूत्राभ्यां गुणनिषेधः भवति, अतः केवलं सिल् योगः आयोगः ति सिलति इति एव भवति, गुणकार्यं न भवति. धातौ आनुकूल्यमस्ति किन्तु तुदादिगणः, तुदादिगणे श इति विकरणप्रत्यये अपित्वम् अस्ति, अतः गुणकार्यं न भवति. साधु भगिनी इदानीं सत्यभामा भगिनी वदतु.
नीलाम् अत्र लकारस्य अन्तिम अनुस्वार उपदेशावस्थायाम् अच्च अनुनासिकस्य इत्संज्ञा भवति, नील् इति भवति. तदनन्तरं नकारस्य नकारः नत्वं भवति, नो न इति सूत्रेण नील् इति भवति.
धातुं पश्यतु, ह्रस्व ईकारः एव अस्ति खलु, दीर्घ ईकारः नास्ति. तत्र अनुनासिक अकारस्य लोपः भवति, पश्चात् णोनः इति सूत्रेण दन्त्यनकारः आयाति. धातोः अन्तिमं रूपं किम्? अत्र दीर्घत्वं नास्ति, धातुः तुदादिगणे अस्ति. रूपं साधयतु लटी
रूपं.
निल् योगः आयोगः
आयोगः.
पुनः तदेव विवरणं वक्तव्यमस्ति. धातुः निल् अस्ति, निल् धातौ उपधायां ह्रस्व इकारः अस्ति, गुणकार्यं भवितुम् अत्र आनुकूल्यमस्ति, किन्तु धातुः तुदादिगणे अस्ति इति कारणतः पुगन्तलघुपथस्य च इत्यस्य कार्यम् अभूत्वा, गुणकार्यम् अभूत्वा केवलं निल् एव तिष्ठति. निल् योगः आयोगः ति निलति इति लटी रूपम्. अग्रे करोतु.
इलाम् इति अस्ति अत्र, अत्रापि उपदेशस्य अनुनासिक इत्यनेन अनुनासिकस्य इत्संज्ञा भवति, इल् इति तिष्ठति. इल्लति तदपि तुदादिगणीयधातुः अस्ति वा?
आम्,
शा इति विकरणप्रत्ययः. सो शा इल् योगः आयोगः ति इल्लति इति रूपम्.
इलति इति रूपमस्ति, निजन्तरूपमस्ति चेत् एलयति इति रूपं भवति. अत्र लकारोत्तरवर्ती अनुनासिक अकारः इत्संज्ञकः, तस्य लोपानन्तरम् इल् इति लौकिकधातोः रूपम् अस्ति. अग्रिमधातुः भवती वक्तुं शक्नोति वा? स्पष्टतया वक्तव्यं.
क्लिशाम् इति अस्ति. क्लिशाम् इत्यत्र उपदेशे अच्छ अनुनासिक इत् इत्यनेन अन्तिम अनुनासिक अकारस्य इत् लो इत् संज्ञा भवति. तदनन्तरं तस्य लोपः इत्यनेन लोपः भवति. क्लिश् इति धातु भवति.
साधु उक्तवती उपतापे इत्यस्मिन् अर्थे क्लिशौ धातुः अस्ति. अनुनासिक अकारः इति संज्ञकः अनुबन्धलोपानन्तरं क्लिश् इति लौकिकधातुः. अत्र अन्यानि कार्याणि न सन्ति, केवलं धातुः क्लिश् अस्ति. इत्युक्ते तालव्यशकारः अन्ते अस्ति. अत्रापि धातुः इदूपधधातुः. अयं धातुः दिवादिगणे अस्ति. सत्यभामा भगिनी, धातुः दिवादिगणे अस्ति चेत् रूपं किं भवति?
क्लिशति. दिवादिगणे अस्ति चेत् द्वित्वं भवति.
न जुहोत्यादिगणे द्वित्वं भवति. धातुः दिवादिगणे अस्ति. दिवादिगणे अस्ति इति कारणतः. वीणा भगिनी वदतु.
षण् इति प्रत्यय विकरणप्रत्ययः अस्ति भगिनि. षण् इति प्रत्ययः अस्ति, अतः य इति मध्ये आगच्छति. धातोः मध्ये य आगच्छति. आकारं शकारस्य तथा नकारस्य लोपः भवति. शकारस्य लशकुतदिति इति सूत्रेण, नकारस्य हलन्त्यम् इति सूत्रेण य इति अवशिष्यते. अतः क्लिश्यते आत्मनेपदी अस्ति, अतः क्लिश्यते इति भवति अन्तिमरूपम्.
धातुः क्लिश् अस्ति. शकारात् पूर्वम् उपधायाम् इकारः अस्ति. अतः इदुपधधातुः गुणकार्यं भवितुं धातौ आनुकूल्यम् अस्ति. किन्तु धातुः दिवादिगणे अस्ति. दिवादिगणे ष्यन् इति विकरणप्रत्ययः अस्ति. ष्यन् विकरणप्रत्ययस्य स्वभावः कः? वदतु वीणा भगिनी.
ष्यन् यकारः धातोः मध्ये आगच्छति. यकारस्य आगमनं भवति मध्ये शकारस्य.
अत्र विकरणप्रत्ययः ष्यन् अस्ति. ष्यन् विकरणप्रत्यये षित्वम् अस्ति, पित्वं नास्ति. पित्वं नास्ति इति कारणतः धातौ आनुकूल्यम् अस्ति चेदपि गुणकार्यं न भवति. या इति विकरणप्रत्ययस्य अवशिष्टभागः तत्र आयाति. क्लिश् योगः या योगः ते, क्लिश्याते इति लटीरूपं खलु.
आम् आम्.
भवती एव अग्रिमधातोः रूपं वदतु.
अत्र नील् अस्ति. नील् इति अभवत् खलु. नील् इति अस्ति. इक ई दीर्घः अस्ति अत्र. तदपि तुदादिगणे एव अस्ति इति अहं मन्ये. लकारस्य अनन्तरं परे अकारस्य अनुनासिक अकारः अस्ति. तत् उपदेशे जनुनासिक इति सूत्रेण तस्य लोपः भवति. अत्र नत्वम् इति सूत्रेण, नो नः इति सूत्रेण नत्वं भवति. अत्र नील इति भवति. नील तत्र किमपि तदनन्तरं किमपि कार्यं न भवति. सत्वं नुमागमः इति न भवति. अतः नीलति इति नीलति इति एव भवति इति अहं मन्ये भगिनि.
नील् इति लौकिकधातोः रूपं. नील् तत्र दन्त्यनकारयुक्तं रूपं लेखनीयं. नील् योगः आयोगः ति नीलति. अत्र धातुः भुवादिगणे अस्ति. शप् विकरणप्रत्ययः अपि अस्ति. किन्तु गुणकार्यं किमर्थं न भवति पुगन्तलघुपथस्य च इत्यनेन अत्र गुणकार्यं न भवति. किमर्थम्?
इकः ह्रस्व इकारः नास्ति. दीर्घ ईकारः अस्ति, अतः न भवति.
उत्तमम्. अत्र उपधायां दीर्घ ईकारः अस्ति. ह्रस्व इक् वर्णः अस्ति चेदेव पुगन्तलघुपथस्य च इत्यनेन गुणकार्यं भवति. अत्र उपधायां दीर्घ ईकारः अस्ति, अतः गुणकार्यम् अभूत्वा नील् योगः आयोगः ति नीलति इति लटीरूपम् अस्ति. अग्रिमधातुः अस्ति ष्टक. वदतु.
ष्टक् अत्र शकारः प्रथमं क अकारस्य प्रथमं अनुनासिक अकारस्य तस्य लोपः भवति. ष्टक् इति अवशिष्यते. अत्र शकारस्य धात्वादेः श सः इत्यनेन शकारस्य लोपः भवति. अत्र किम् अस्ति ते निमित्तस्य अभावे नैमित्तिकस्य अपायः च समीचीनं वा? निमित्तस्य अभावे नैमित्तिकस्य अपायः इति सूत्रेण तकारः अपि गच्छति इति अहं चिन्तयामि. अतः त इति आगच्छति, तक् इति आगच्छति तकारस्य स्थाने, तकारः शकारस्य स्थाने सकारः, स्तक् इति भवति. तदनन्तरं स्तकति इति रूपम्, अन्तिमरूपं स्तकति. अकारशब्दादिगणे अस्ति, अकारः अकारः अस्ति. तदनन्तरं ति इति प्रत्ययः आगच्छति, शप् प्रत्यय तिगन्तरूपं लट्लकारे स्तकति. समीचीनं वा भगिनि?
साधु उक्तवती. अत्र धातुः शोपदेशे धातुः अस्ति, ककारोत्तरवर्ती अनुनासिक अकारः उपदेशे जनुनासिके इत् इत्यनेन इत्संज्ञकः तस्य लोपः इत्यनेन तस्य लोपः भूत्वा ष्टक् इति रूपं सिध्यति. धातुः शोपदेशे धातुः, अतः धात्वादेः शहसः इति सूत्रेण धातोः आदौ स्थितस्य मूर्धन्यशकारस्य स्थाने दन्त्यसकारः आयाति. धात्वादेः शहसः सूत्रेण सत्वं भवति. तेन तत्र रूपं किं भवति? सकारः, टकारः, ककारः, स्टक् इति रूपम् अस्ति. यथा भवत्या उक्तम्, अत्र इतोपि चिन्तनमस्ति, निमित्तापाये नैमित्तिकस्यापि अपायः इति एकः प्रवादः. यदा निमित्तं गतं तदा नैमित्तिकमपि ततः निर्गच्छति. अत्र शास्त्रीयचिन्तनमपि अस्ति, शास्त्रीयचिन्तनमपि एकवारं स्मरणीयम्. नरसिंह हेग्डे महोदय, अत्र शास्त्रीयचिन्तनं किम्? स्तक् इति लौकिकधातोः रूपं सिध्यति अन्ते, स्तकति इति लट् रूपम् अस्ति. अत्र शास्त्रीयचिन्तनं किम्?
एकं शास्त्रीयचिन्तनम् अस्ति पूर्वत्र सिद्धम् इति. अत्र प्रथमतया दन्त्यसकार एव आसीत्, तद् स्तोश्चुना इत्यनेन ष्टुत्वं भूत्वा ष्टक् इति भवति. तदनन्तरं यथा षकार भवति तत्र नो उपदेशधातुः ष स इत्यनेन तद् न भवति. किमर्थमित्युक्ते तत्र सूत्रसङ्ख्यां पूर्वतनसूत्रम् अस्ति, तत् स्टोस्ना इति सम्यक्तया तदेव अस्ति. किमपि दर्शनीयम् आम् द सेम् लैन्स् इट् बिकम्स् पर पूर्वसूत्रमेव भवति तत्र. परसूत्रं न परसूत्रस्य सूत्रस्य कार्यं न भवति तत्र. शास्त्रसिद्धं कार्यसिद्धम् इति अस्ति तत्र.
अहं किञ्चित् स्मारयामि तस्मिन् प्रसङ्गे. धातुपाठे एवं रीत्या लिखितमस्ति, ष्टक् मूले तु धातौ कीदृशं रूपम् अस्ति? षकारः अस्ति, अपि च तकारः अस्ति. षकारः तकारः तादृशं रूपम् अस्ति मूले. तत्र स्थितस्य षकारस्य प्रभावेण ष्टुनाष्टुः इति सूत्रेण तत्र स्थितस्य दन्त्यतकारस्य स्थाने मूर्धन्यटकारः आयाति. तेन एव ष्टक् इति रूपं सिध्यति. पुनः वदामि, तत्र षकारः अपि च दन्त्यतकारयुक्तं रूपं पूर्वम् आसीत्. षकारस्य प्रभावेण सन्धिकार्यं भूत्वा ष्टुनाष्टुः इति सूत्रेण तत्र स्थितस्य दन्त्यतकारस्य स्थाने मूर्धन्यटकारः आयाति. तेन ष्टक् इति रूपं भवति. धातुपाठे तु इदमेव रूपं दृश्यते. लौकिकधातोः रूपं साधयितुमिच्छामश्चेत् तदा धात्वादेः शहसः इति सूत्रेण षकारस्य स्थाने दन्त्यसकारः यदा आयाति तदा ष्टुनाष्टुः इति सूत्रस्य अवसरः एव नास्ति तत्र. यदा षकारः दन्त्यसकारः जातः तदा ष्टुनाष्टुः इति सूत्रम् अनावश्यकम्. ष्टुनाष्टुः इति सूत्रम् अष्टाध्याय्याः त्रिपाद्याम् अस्ति. अष्टाध्यायी इति ग्रन्थस्य द्वितीयभागः त्रिपादी. ष्टुनाष्टुः सूत्रं त्रिपाद्यन्तर्गतं सूत्रं, किन्तु सपादसप्ताध्याय्यां धात्वादेः शहसः इति सूत्रमस्ति. अत्र धात्वादेः शहसः सूत्रं पूर्वसूत्रं, ष्टुनाष्टुः इति सूत्रं परसूत्रम्. अत्र पूर्वत्रासिद्धम् इति सूत्रस्य अधिकारः अस्ति. सम्पूर्ण अष्टाध्याय्यां पूर्वत्रासिद्धम् इति सूत्रस्य अधिकारः अस्ति. इत्युक्ते पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति, तदेव शास्त्रासिद्धम्. पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति इति पूर्वत्रासिद्धम् इत्यनेन उच्यते. तदर्थं तत्र पूर्वसूत्रस्य कार्यमेव भवति. अत्र पूर्वसूत्रं धात्वादेः शहसः. तेन सूत्रेण आदौ स्थितस्य शकारस्य स्थाने दन्त्यसकारः यदा आयाति तदा परसूत्रस्य प्रसङ्गः एव तत्र अनावश्यकम्. अष्टुनाष्टुः इति सूत्रस्य अवसरः एव नास्ति तत्र इति अत्र शास्त्रीयचिन्तनमस्ति. निमित्तापाये नैमित्तिकस्यापि अपायः इति प्रवादः अस्ति. यदा निमित्तं गतं तदा निमित्तम् आश्रित्य यत् कार्यं भवति तत् कार्यमपि ततः निर्गच्छति इति तेन प्रवादेन उच्यते. शास्त्रीयचिन्तनमपि अस्माभिः चर्चितमेव. धातुः भुवादिगणे अस्ति इति कारणतः स्तकति इति लट्लकाररूपम् अस्ति. अत्र इतोपि केचन धातवः सन्ति, तेषां प्रसङ्गे आगामिनि सप्ताहे चर्चयिष्यामः वा नो चेत् इदानीम् इतोपि किञ्चित् कार्यं कुर्मः वा इति मम चिन्तनम् अस्ति. आगामिनि सप्ताहे करिष्यामः. साधु भगिनी, आगामिनि सप्ताहे अग्रिमानां धातूनां प्रसङ्गे चर्चां करिष्यामः.